ध्यायेत् नित्यं महेशं रजतगिरिनिभै चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवरा भीतिहस्तं प्रसन्नम् पद्मासीनौ समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिवसानौ विश्वाद्यं विश्ववन्द्यन् निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्।